नमः सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। है उन ऋक् एओङ अयौच हयपरट् लण ञमगणनं झवञ् घटदश् झवघटदश् कफचटतचटतौ कपै षषसर् हल् इति माहेश्वराणि सूत्राणि। गोमति भगिनि अव्ययीभावसमासूत्राणि वदतु।
नमस्ते, डिड् यु काल् मै नेम्?
आम्,
पठामि महोदय। समर्थः पदविधिः प्राक्कटारात् समासः शुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कटारात् समासः सः सुपा अव्ययी भावः। अव्ययं विभक्तिः समीपः समृद्धि व्युर्ध्य अर्थाभाव अर्थाभाव अत्यय असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाका संख्या परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ् मर्यादाभिविद्योः लक्षणेनाभिप्रति अभिमुख्ये अनुर्यत् समया यस्य चायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्या वंश्येन नदीभिश्च अन्यपदार्थे च संख्या संज्ञायाम् अन्यपदार्थे च संज्ञायाम्।
धन्यवादः भगिनि। गतवर्गे तिष्ठद्गुप्रभृतीनि इति च इति सूत्रस्य अवलोकनं कृतवन्तः सर्वे। अद्य नूतनसूत्रं पारे मध्ये षष्ट्या वा इति सूत्र, ततः पर्यन्तं त्रीणि सूत्राणि एव अवशिष्यते समास अव्ययीसमासविषये इति कृत्वा अत्र कोऽपि प्रश्नः अस्ति वा तिष्ठद्गुप्रभृतीनि च इति सूत्रविषये? नो चेत् नदीभिश्च इति सूत्रस्य अवलोकनं कुर्मः। अस्तु, उषा भगिनी द्वादशबिन्दु पठितुम्।
ओके, दिस् इस् थैंक यू फॉर शेयरिंग द स्क्रीन, दिस् इस् मच ईज़ियर। या पार तथा मध्य एतौ द्वौ शब्दौ षष्ट्यन्तेन सुबन्तेन सह समस्यते अव्ययीभावसमासः च भवति। पारे मध्ये षष्ट्या वा, पार मध्य इति शब्दौ षष्ट्यन्तेन सह विभाषा समस्येते अव्ययीभावश्च समासः भवति। प्रथमा षष्ठी इत्यादि विभक्तिसंज्ञा सुप्रत्ययस्य भवति, अतः षष्ट्या इत्यनेन विभक्तिप्रत्ययः इत्यर्थः। षष्ट्या इत्यनेन षष्ट्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति। प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषया षष्ट्या इत्यनेन षष्ट्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति। प्रत्ययग्रहणे तदन्तग्रहणम् इति परिभाषया अस्मिन् सूत्रे वा इति इत्यपि उक्तम्। विभाषा इत्यस्य अधिकारः अपि अस्ति। वा इति शब्दस्य द्वारा वैकल्पिकविधानं भवति येन यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्टितत्पुरुषसमासः भवति. इदं सूत्रं षष्टितत्पुरुषसमासस्य अपवादः अस्ति. विभाषा इत्यस्य अधिकारात् यस्मिन् पक्षे षष्टितत्पुरुषसमासः न भवति तस्मिन् पक्षे व्यस्तप्रयोगः अपि शक्यते. पारे इति लुप्तप्रथमान्तरूपं, मध्ये इति च लुप्तप्रथमान्तरूपं, षष्ट्या तृतीयान्तं च अव्ययम्. प्राक्कडारात् समासः इत्यस्य अधिकारः अस्ति. समर्थपदविधिः इति परिभाषसूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं पारे मध्ये सुपौ षष्ट्या सुपासः अव्ययीभावः समासः वा विभाषे. पारे मध्ये षष्ट्या वा इति सूत्रात् पारे मध्ये इति शब्दौ षष्ट्यन्तपदेन समस्यते वा विभाषा अव्ययीभावसमासं उत्पत्ति भवति. वा इति शब्देन षष्टितत्पुरुषसमासं निष्पन्नः भवति. विभाषा इति अधिकारः अस्ति. अधिकारः अस्ति चेत् व्यस्तप्रयोगः अपि कर्तुं शक्यते. विभाषा अधिकारात् व्यस्तप्रयोगः वा इति षष्टितत्पुरुषसमासः. पारे मध्ये इति शब्दाः लुप्तप्रथमान्तशब्दाः. पारे इति शब्दौ वा पारे मध्ये इति लुप्तप्रथमान्तपदम् अस्ति चेत् उपसर्जनसंज्ञा भवति. प्रथमवृद्धिः भवति, उपसर्जनसंज्ञा भवति. तस्मात् पूर्वप्रयोगः अस्ति.
वा इति विवरणं करोतु.
वा इति शब्देन षष्टितत्पुरुषसमासः अपि भवति इति उक्तं. वा इति शब्दस्य वैकल्पिकविधानं भवति. ओके, यस्मिन् पक्षे अव्ययीभावसमासः न भवति देन् षष्टितत्पुरुषसमासः भवति अपि.
विभाषा इति अधिकारः अस्ति इति कृत्वा
व्यस्तप्रयोगः अपि कर्तुं शक्यते.
अस्तु, तत्र प्रत्यग्रहणे तदन्तग्रहणम् इति परिभाषया इति उक्तमस्ति. तस्य अर्थं किम्?
प्रत्ययग्रहणे तदन्तग्रहणं षष्ट्या इति पदं षष्ट्या इति तृतीया विभक्तौ अस्ति. षष्ट्या इति षष्ठी इत्यादि विभक्तिसंज्ञा सुप्रत्ययः. विभक्तिसंज्ञा अपि चेत् षष्ठी चिन्तपदस्य अन्ते षष्ठी प्रत्ययः अपि अस्ति. That what it is. Yena vidhi tadantasya. I thought this is pratyaya grahane tadanta grahanam. Pratyaya grahane. So shashti, shashtya means like shashti pratyaya grahane tadanta grahanam. I don't know to say.
Gomati bhagini vadati va?
अहमपि पूर्वतया तत् परिभाषासूत्रस्य मयापि अवगमनं नास्ति. एक्चुलि अहम् एतत् ऐ वास् अबौट् टु आस्क् परिभाषायाः पूर्णतया अर्थम्. अहम् एतत् अवगच्छामि, सूत्रे षष्ट्या इति दत्तं, षष्ट्या इत्युक्ते षष्टि इति प्रातिपदिकस्य तृतीया विभक्ति. तु अत्र तृतीया विभक्ति न स्वीकरणीयं. प्रत्यग्रहणे तदन्तग्रहणं तु षष्टिविभक्तौ यदा षष्टिविभक्त्याः यदा षष्ट्यन्तं सुबन्धम् एव अस्माभिः स्वीकरणीयम् इति पारामध्ये इति शब्दौ षष्ट्यन्तेन सह विभाषा समस्यते इति अस्माभिः पठितं. तु षष्ट्यन्तेन सह अत्र सूत्रे तृतीया विभक्ति अस्माभिः दृष्टं. तु षष्ट्यन्तेन पदमेव स्वीकरणीयम्. एतदपि अहम् एतदेव अहम् अवगच्छामि. पूर्णतया मया न अवगतं महोदय.
That's why we put it the अलौकिक विग्रहवाक्य has nas because of the nas. षष्टि प्रत्यय षष्ट्यन्तप्रत्यय षष्टि विभक्तिप्रत्यय नस् एव गृह्यते.
So, but Shashtya and Shashtyandena, how to connect?
That's why they are saying Pratyayagraha. I thought Ena Vidita Dantasya is what they would connect.
Tatra Sutre, Shashtya Iti Shabuktena, Kim Grahyam Bhavati Iti Spashtam Asti Chet, Pratyagrahane Tadanta Grahanam Yapi Spashtam Bhavati. अत्र षष्ट्या इत्युक्तेन षष्टी प्रत्यय यस्य सुबन्धस्य अन्ते अस्ति तस्य इति इति चिन्तनं कुर्यात्. अत्र षष्ट्या एवमुक्तमस्ति सूत्रे. तत्र षष्ट्या इत्युक्तेन यस्य सुबन्धस्य प्रत्ययः षष्टी अन्तम् षष्ट्यन्तेन भवति तस्य तस्य ग्रहणं भवनं प्रत्ययग्रहणं प्रत्ययतन्ते तद् अन्धग्रहणम् इत्युक्ते यत् येन सुबन्धस्य अन्तिम प्रत्ययः षष्ट्यां विधीयते तत् सुबन्धं पारे मध्या इति द्वयोः शब्दयोः सह अव्ययी भावसमासः भवेत्. अनुवृत्तिसहितसूत्रं पश्यते चेत् स्पष्टं भवति. पारे मध्ये सुपौ पारे मध्ये सुपौ षष्ट्या सुप तत्र षष्ट्या सुप इति दत्तमस्ति इति कृत्वा सुबन्धं यस्य षष्ट्या प्रत्ययः अन्तः अस्ति इति ग्रहणं भवति. तस्य सह समासः भवति चेत् अव्ययीभावः समासः भवति वा इति उक्तेन षष्ठीतत्पुरुषसमासः अपि भवितुमर्हति. विभाषा इति उक्ते अधिकारस्य कारणेन व्यस्तप्रयोगस्य अपि अधिकारः अस्ति. तदेव अस्ति तत्र पूर्णसम्पूर्णसूत्रस्य अनुवृत्तिसहितसूत्रस्य अर्थः. So normally Shashtya will take Shashti Vibhakti Subandham iti. Tasya Andagrahanam iti Mukhya Eva Vishayasti. Yasya Ande Shashti Vi Pratyasya Uddha Nirdesham Karoti iti. Is it clear? Here the Sutra Shashtya means which subandha has a shashti andam that subandhena saha pratipare madhye iti. That is the one way to we have to take the meaning.
I'm just repeating the sentence. Yasya ante shashti vibhaktihi yasya subandha सुबन्धस्य अन्ते षष्टी विभक्तिः अस्ति तस्य सुबन्धस्य स्वीकरणं कर्तव्यम्.
आम् परिभाषस्य प्रत्यग्रहणे तत् अन्धग्रहणम्. सो प्रत्य इस् षष्ट्यन्तम् इति षष्ट्या इति उक्तेन षष्टिशब्देन इति न स्वीकरणीयं, किन्तु यस्य सुबन्धस्य अन्धे षष्टि अस्ति then only we can do the subodhadu pratipadika vidhi upasatta pratyaya look bhavati no lopa bhavati.
It's clear.
Then edandattvam sharmila bhagini.
Patami mohode. एदन्तत्वं च अनयोर्निपात्यते, अर्थात् प्रकृतसूत्रस्य द्वारा पार मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव, यतोहि उक्तयोः अविभक्तिकपदयोः पारे मध्ये च सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते. अत्र पार च मध्ये इति अव्ययं वा द्वावपि तेषाम् अत्र निपातनं भवति एकारान्तेन, अतः पारे च मध्ये इति सूत्रे एव दीयते, अतः पारे च मध्ये इति शब्दानां प्रयोगः षष्ठ्यन्तं सुबन्तेन सह करणीयम् इति मन्ये.
यतोहि पारा मध्य इति अकारान्ते एव अस्ति, किन्तु सूत्रे सूत्रकारेण एव एतद्दत्त्वं निपाद्यते इति कृत्वा समासे अपि एदन्तत्वेन एव उपयोगं करणीयम्. अत्र तस्य लोपो न भवति इति स्पष्टम् अस्ति चेत् समासनिधायनसमये भ्रमः न जायते. नास्ति चेत् तस्य एकार अन्तस्य प्रत्ययम् इति कृत्वा तस्य लोपो भवति इति भ्रमः जायते. तस्य निवारणार्थं पारे मध्ये इति सूत्रकारेण एव दत्तमस्ति, यतोहि तयोः अकारान्तमस्ति चेदपि तस्य अकारान्तत्व उपयोगः न कृतम्.
अग्रे अपि पठामि वा?
अग्रे षष्ठे पठे.
अस्तु. पक्षे षष्ठी तत्पुरुषः, अर्थात् प्रकृतसूत्रे वा इति उक्तत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति षष्ठी इति सूत्रेण. एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति. तात्पर्यम् एवं यत् पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति. द्वितीयं पार मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति षष्ठी इति सूत्रेण. षष्ठी इति सूत्रस्य विवरणम् अग्रे दीयते. अत्र वा षष्ठी षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषसमासो भवति. षष्ठी प्रथमान्तम् एकपदम् इदं सूत्रम्. सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं षष्ठि सुपसुपासः विभाषा तत्पुरुषः समासः. अत्र सूत्रे एव पारे मध्ये षष्ठ्या वा इति दीयते. तत्र षष्ठ्यन्तं सुबन्तेन सह षष्ठितत्पुरुषसमासः अपि भवितुम् अर्हति. अतः वा इत्यस्य कथनेन पक्षे षष्ठितत्पुरुषसमासः भवति, पक्षे षष्ठ्यन्तेन सह समासः, पारे च मध्ये इति शब्दस्य षष्ठ्यन्तं सुबन्तेन सह समासः भवति. षष्ठितत्पुरुषसमासविषये तु पार अथवा मध्ये इति शब्दानां प्रयोगः भवति. तदनन्तरं षष्ठी इति तत्पुरुषसमासविषये यः सूत्रः अस्ति सः तत्र तु षष्ठ्यन्तं सुपेन सह तत्पुरुषसमासः विकल्पेन भवति इति अस्ति.
अनुवृत्तिसहितसूत्रस्य विवरणं ददातु.
षष्ठी सुपसुपासः विभाषा तत्पुरुषसमासः. अतः षष्ठी विभक्तौ यः सुबन्तम् अस्ति तस्य सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति इति मम चिन्तनम्.
विभाषा इति कारणेन किं भवति?
तत्र पुनः विकल्पेन समासः भवति.
व्यस्तप्रयोगं भवति.
व्यस्तप्रयोग भवितुमर्हति. सीतायाः पतिः इति विग्रहे सीता इति षष्ठ्यन्तस्य उपसर्जन संज्ञा भवति. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण, तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति. अतः एव समासे सीता इति पदस्य प्रयोगः पूर्वं भवति. षष्ठीतत्पुरुषसमासः सीतापतिः इति भवति. अत्र तु सीतायाः पतिः इति षष्ठ्यन्तं सह सुबन्तम् इति समासे कृते प्रथमानिर्दिष्टम् उपसर्जनं उपसर्जनम् इत्यनेन षष्ठ्यन्तं षष्ठी इति सूत्रे प्रथमाविभक्तौ अस्ति. अतः षष्ठ्यन्तं यः पदमस्ति तस्य उपसर्जनसंज्ञा भवति. तदनन्तरम् उपसर्जनं पूर्वम् इति सूत्रेण यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्य पूर्वनिपातः भवति. अत एव सीतायाः पति इति समासः निष्पद्यते. समस्तपद निष्पद्यते.
सीतायाः पति इति व्यस्तप्रयोगमस्ति. समासः सीतापतिः इति.
सीतापतिः.
विभाषा इति कारणेन सीताया पति अपि साधु समासपक्षे सीतापतिः इति. धन्यवादः भगिनि. विनय् महोदय.
आं महोदय.
यदा इति आरभ्य पठतु.
यथा ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रन्थितां पूर्णमुनिना मध्ये महाभारतम्. उपरितने श्लोके मध्ये महाभारतम् इति समस्तपदं पारे मध्ये षष्ठ्या वा इति सूत्रेण भवति. ततः प्रथमतया यदि वयं अग्रे
प्रथमबिन्दु अपि पठतु महोदय. तदनन्तरं
प्रथमबिन्दु महाभारतस्य मध्यं मध्ये महाभारतम् अव्ययीभावसमासः. महाभारतमध्यं षष्ठीतत्पुरुषः. महाभारतस्य मध्यं व्यस्तप्रयोगः. षष्ठीतत्पुरुषे एदन्त इदन्त्वस्य निपातनं नास्ति इत्यतः मध्ये इति न दृश्यते न दृश्यते द्वय चिह्नं गङ्गायाः मध्यम्
अत्र श्लोकस्य
अर्थ
श्लोकस्य मध्ये एकं सविभावसमासः अस्ति मध्ये महाभारतम् इति शब्दम् तस्य 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 प्रक्रिया किं भवति
यदि अत्र मध्ये महाभारतम् अवैभावसमासः अतः विग्रह लौकिकविग्रहवाक्यं तर्हि महाभारतस्य न महाभारत क्षम्यतां महाभारत योगानस् योगापार योगासु
मध्ये
मध्ये न पार नास्ति मध्ये क्षम्यता महाभारत योगानस् योगा मध्य योगासु मध्य व मध्य शब्द अस्ति योगासु सु प्रत्यय अस्ति
महोदय तत्र अव्ययीभावसमासे मध्ये एव स्वीकरणीयं न तु मध्ययोगसु मध्ययोगसु षष्टितत्पुरुषसमासप्रक्रियायाम् एव आयाति
अहं केवलं यदि अहम् एक प्रक्रिया अत्र वदामि
प्रक्रिया भिन्नमस्ति अव्ययीभावसमासप्रक्रिया भिन्नमस्ति षष्टितत्पुरुषस्य प्रक्रिया भिन्नमस्ति अलौकिकगिरवाक्यं सव अव्ययीभावसमासस्य कृते मध्ये एव उपयोगं करणीयं किन्तु षष्टितत्पुरुषसमासे मध्ययोग मध्ययोग सुप् यथा भवान् उक्तं तत् साधु एव किन्तु अव्ययीभावसमासे मध्ये एव स्वीकरणीयं तस्य एदन्तस्य लुक् न भवति
परन्तु मध्ये यदि वयं मध्ये पर्यन्तं गच्छामः तर्हि प्रक्रिया करणीयं प्रक्रिया कृतः तस्य निपात इदत्वम् आयाति यदि निपात इदत्वम् आयाति तर्हि एव मध्ये भवति परन्तु अहं केवलं यदो पुष्पमातजी पुस्तकं अपठत् तत्र एक अहं केवलं पृष्ठ अस्ति अत्र 286 अत्र पुष्पमाताजी सेज् अहम् अत्र केवलं यु नो हिन्दीभाषायाम् अस्ति परन्तु माताजी सेज् हं चाहे तु अहं उदाहरण स्लैट्लि डिफ्रेण्ट् उदाहरण स्लैट्लि डिफ्रेण्ट् बट् इट् इस् अव्ययीभाव समासः हं चाहे तु गङ्गायाः पारं पारे गङ्गं गङ्गायाः मध्यं मध्यगङ्गम् एषा प्रथमान्त विग्रह करके भी एत्व निपातन कर सकते हैं गंगायाह पारम गंगा के पार गंगा योगा नस पार योगा सु प्रकृत सूत्र से अवैभाव समास होने पर समासत्वात् प्रातिपदिक संज्ञा सुवलोक प्रथमांत से निर्दिष्ट पार को पूर्व निपात करके और उसे इदंतम निपातन करके पारे गंगा गोस्त्रीय इट हैज टू बी दिस पर्टिकुलर केस गोस्त्रीयोः से ह्रस्वं करणीयं यथा गङ्गा स्त्रीप्रत्ययान्त अस्ति स्त्रीशब्द नास्ति परन्तु स्त्रीप्रत्ययान्त अस्ति परन्तु उदाहरण भिन्न अस्ति अहं केवलं मात्र यु नो पुस्तकाधारेण एक मध्यभारत महाभारतम् अपि यु नो ऐ ट्रै टु अप्लै इन् टु देट् देट्स् वाट् ऐ वास् डूइङ्ग् दिस् परन्तु
In the Mata's book, the Gostriyor Upasarjanam is used for Prasuttam of the Ganga, not for Pradama Upasarjanam Purva. So that is the difference between that example and the Madhya Mahabharata.
Mahabharata Shabd Asti. मध्ये अपि शब्द अस्ति परन्तु यदि वयं स्वीकर्तुं यु नो इच्छामः मध्यशब्द अस्ति महाभारतशब्द अस्ति तत्र अग्रे गच्छामः परन्तु अहं तत्र गङ्गा उदाहरण अन्य सम्बन्ध गोश्री अन्य विषय अस्ति परन्तु अत्र यदि वयं मध्य महाभारत शब्द आधारेण अवैभाव समास कुर्मः तर्हि अहं न जानामि अत्र कुत्र अहं ह्रस्वत्वम् इच्छामि वना परन्तु यदि अहं कम्प्लीट् प्रक्रिया करोमि तर्हि अहम् अग्रे जानामि यदि ह्रस्वत्वम् अत्र भवति न भवति परन्तु महाभारतमध्ये शब्दद्वयं तत्र अपि तदनन्तरं निपातं भवति परन्तु द होल् प्रक्रिया इस् डन् But I could be wrong too. I'm not saying,
I just wanted to tell one thing only because in the sutra itself, Panini has specified as Pare and Madhye. The reason why Pare and Madhye Edanta Padam is given is to make it as an Avyaya and for Avi Bhava Samasa. If it had been a regular Samasa like Tatpurusha or other Samasas, then he would have used as Para and Madhya so that you can add Supratyasya 21 pratyas and use it as required in the case. But like para, api, upa, where we all use the upasargas or the pratyas, pradigana, it was given as it is as an avyaya padam to be used in the samasa. Even though they are avyaya, अव्ययात् ताप सुपः इति सूत्रेण तस्य सुप् लुक् भवति इति कृत्वा शब्दत्वं पदत्वं भवति अत्रापि एदन्तत्वं दत्तेन तस्य अव्ययी संज्ञा भवति इति कृत्वा महाभारतयोगः अङ्गस् योगः मध्ये इति अलौकिकविक्रवाक्यं स्वीकृत्य प्रक्रिया करणीया
No, that, I have no problem there. You know, that would be the way to go. Reason being, Pare Madhye, Panini has used over here.
Why I think is that Pare Madhye, Saptami Ekavachanasya, you know, Prakriya come as a confusion. Second thing is that, because otherwise no other edantattvam we can give for an akaranta.
True. No, I think we have to go with Panini, what Panini has said. There's no question about that, you know. But when I saw that, I said, okay, Mataji is taking another approach. Is she trying to say that, well, this is fine, however, avaibhava samasa prakriya completely can be used over here. Considering that par and madhya are shabdadvayam,
which book of Mataji is in this one?
this is the yeah, this is the one which came recently. Shasht bhag atya
ashtadhyayi sahib. Okay.
Yeah. See, there is one thing is Mataji has done. She has. See, I have seen other books too by Bhami, you know, Laghu Siddhanta Kaumudi Itadi, which is pretty good.
Right.
But Atra Mataji has tried to answer everything, you see, and taken all kinds of approaches to be able to make the point. And that's what I liked very much. You see, whenever you even look at the way we have read the Abhay Bhava Samasa Itadi, Tatra Api. अवगच्छामः यदि गङ्गा स्त्रियप्रयान्त अस्ति न अपि स्त्री अस्ति तर्हि एव हरस्वत्वं हेतु एकसूत्र गोस्त्रियोः इत्यादि वयं
विनय महोदय कैन यू रीड आउट द शीर्षकम ऑफ द पुष्पा भगिनी सॉरी पुष्पा माताजी वॉट एवर एक्सप्लेनेशन यू रेड दैट बुक टाइटल कैन यू गिव मी
षष्ठ भाग
षष्ठ भाग ऑफ विच वन
I'll give you that. It is called Ashtadhyayi Sahaj Bodha, and there are six books, and this is the I think this is number six here. You see, that's what it is.
Ashtadhyayi Tattva Bodha. What is it? Ashtadhyayi.
No, Sahaj Bodha. Sahaj Bodha.
Sahaj Bodha.
There are six books like that. Yeah.
I will post you the.
Right.
Okay.
And it's about.
From where you can get
and Samas Prakriya, okay, for two things over here. It's a very good book.
There are six volumes now. She is writing the seventh volume.
Oh, yeah. Thank you. That's true.
It's all in Hindi, Mahoday?
Okay. It's in Hindi. Those who
they're all Hindi. They're all in Hindi. When we had the most recent, teaching from Mataji, then I made a comment to her that the way she has written in Hindi makes a lot of sense. Reason being, for those people who know Hindi, those who don't, and
that's
Mataji
why I
answered,
asked, well, I don't know.
No, that Mataji said something. She said, "Well, let them read that in their own language, like Malayalam or something like that." But I there's another person who is a shishya of Swami Dayanand Saraswati. Her name is Swamini Brahma Prakashanand. She's in Nagpur. She was here in Pennsylvania, and she made a point of that. She said, if you read it Hindi, you'll be able to get to the point faster. You will learn it much, much faster. That's all she was saying. So that's what I mentioned to Mali.
Yeah, I saw her recently here.
Right. Okay. We will now proceed to the Asmin Sutre Eva Va Idi Padamasti. Pushpa Bhagini? Dhanyavada Mohdiya. Pushpa Bhagini?
Ekanimsham Hadya. I'm going to open the. I can't read in the small print in the phone.
Okay.
It's very difficult for me. So I'll open up the iPad.
Okay.
One second. I have it open actually. Okay. To be, right? Yeah, that's the one. Okay. Come on. Okay. Which this thing we are studying?
After the three examples, Madhya, Ganga and Jalasya Madhyam, after that Asmin Sutre Evava Iti Padamasti Vibhasha.
Okay, I have to go further. Okay.
Yeah.
Asha Apapariyang later. That is all long time ago. Apapariyang is so long ago. पारे
मध्ये वा मारे मध्ये षष्ट्या वा
पारे मध्ये षष्ट्या वा लक्षणेनाभि प्रति दट्स् फिनिश्ड्
Yeah, yeah, that's all finished. I said that.
That's why I'm going back, you know, forward. So, yasya chayamaha, that's finished. Right?
Yep. Yes, yes.
Prabhruti
next to that, after that.
After that, okay. Yeah, that she explained a lot the last time. Okay, I got it. Okay, pare madhye. So, you read that?
Examples. There are three examples. Mahabharatasya madhyam, Gangaya madhyam, Jalasya madhyam. After that,
Gangaya madhyam, in or into the Ganges, madhye gangam.
Yeah, the yeah.
After that, okay.
Yeah, yeah. You read from that.
I'm sorry.
You can read from that.
अस्मिन् सूत्रे एव वा इति पदम् अस्ति विभाषा इत्यस्मात् अधिकारसूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपि अस्ति द्वौ विकल्पौ अस्मिन् सूत्रे प्रसक्तौ अतः त्रीणि रूपाणि सम्भवन्ति वा इत्यनेन वैकल्पिकविधानं भवति अनेन अव्ययीभावसमासः विकल्पेन भवति पक्षे षष्टिसत्पुरुषसमासः अपि भवति महाविभाषा इत्यस्य अधिकारः अपि भवति अपि अस्ति इत्यतः एकस्मिन् पक्षे षष्टितत्पुरुषसमास समासस्य अपि समासस्यापि या कथमायते अत्र तत् षष्टितत्पुरुषसमासस्य सस्यापि अभावः भवति अतः समासः समास अभावरूपं वाक्यमेव भवति समास अभावरूपं वाक्यमेव भवति तत्तु व्यस्तप्रयोगं वाक्यमेव भवति इति गङ्गायाः मध्ये
अस्मिन् परिच्छेदस्य विवरणं ददातु
एतत् सूत्रे पारे मध्ये षष्ट्या वा इति सूत्रेण एतद् इत्यस्मात् विभाषा इत्यस्मात् अधिकारसूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपि अस्ति इति वदति तत्र वा इति पदस्य पदं कथम् आयाति इति विवरणं कृतम् अत्र द्वे विकल्पेन समासौ आगच्छति एतत् अतः त्रीणि रूपाणि अव्ययीभावसमासः अपि अस्ति षष्टितत्पुरुषसमासः अपि अस्ति महाविभाषा इत्यस्य तत्तु विभाषा एव अधिकार अपि अस्ति तत् कारणात् एकस्मिन् पक्षे षष्टितत्पुरुषसमासस्य अभावः भवति अत्र सभावस अभावरूपं वाक्यमेव भवति तत्तु जलस्य मध्यम् एतद् तद् वाक्यम् अस्ति
तत्र अभाव इति उक्तेन किं ग्रहणं भवति
अत्र किं षष्टितत्पुरुषसमासस्य अभावः भवति इति वदनेन समासरूपः न समास अभावः अभावरूपं भवति इति. अभावरूपं भवति समासः एव नास्ति अत्र एतद् वाक्यरूपे एव वदामः इति. त्रीणि रूपाणि त्रयः रूपः
अत्र सम्यक् एव भगिनि, सम्यक् उक्तं. तत् अभावः इत्युक्ते षष्ट्यन्तपदमेवं यथा यथा पूर्वं तदा एव तिष्ठति. तत्र षष्ट्यन्तपदस्य कोऽपि परिवर्तनं न भवति, न तु अव्ययीभावसमासपक्षे अथवा षष्टितत्पुरुषसमासे पक्षे अपि षष्ट्यन्तपदस्य अन्तप्रत्ययस्य परिवर्तनं भवति समासपक्षे. महाविभाषा इत्यधिकारः अस्ति इति कृत्वा तस्य षष्ट्यन्तपदस्य कोऽपि परिवर्तनं न भवति कृत्वा समासस्य अभावः एव भवति इति कृत्वा व्यस्तप्रयोगं भवितुमर्हति इति.
तदेव तदेव व्यस्तप्रयोगः. जलस्य मध्यं, गङ्गायाः मध्यं, महाभारतस्य मध्यम् एतत् एतत् इति.
आं भगिनि, धन्यवादः.
धन्यवादः
गोमती भगिनि. तदनन्तरं गङ्गाया पार अनय आनय
पठामि. यथा गङ्गायाः पारात् आनय, पारे गङ्गात्, फ्रम् द अदर् सैड् आफ् द गङ्गा, बियाण्ड् द गेञ्जस् आनय, पारे गङ्गात् आनय, गङ्गापारात् आनय, गङ्गायाः पारात् आनय. एकस्मिन् पक्षे पारे गङ्गात् इति अव्ययीभावसमासः विकल्पेन भवति पारे मध्ये षष्ट्या वा इति सूत्रेण, यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्टितत्पुरुषसमासः भूत्वा गङ्गापारात् इति. यस्मिन् पक्षे षष्टितत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात् आनय इति. पठामि गङ्गायाः पारात् आनय इति लौकिकविग्रहं वाक्यं. तस्य सूत्रम् अव्ययीभावसमासात् यदा प्रक्रिया भवति तदा पारे गङ्गात् इति भवति. वा इति सूत्रे अस्ति, अतः षष्टितत्पुरुषसमासः भवति चेत् गङ्गायाः गङ्गापारात् इति भवति. विभाषा इति उक्तेन गङ्गायाः पारात् इति रूपत्रयम् अस्ति अत्र, तदेव उक्तम् अत्र. नार्मलि वि सी पारे गङ्गम् इति एव अव्ययीभावसमासात् प्रक्रियानन्तरं पारे गङ्गम् इति प्रथमाविभक्ति तृतीया चतुर्थी सूत्रे
गङ्गं नास्ति पारे
नैव ऐ सब् इट् विल् हेपन् लैक् देट् बट् अत्र गङ्गायाः अत्र पारात् मीन् पारे गङ्गात् इति पञ्चमी विभक्तौ अस्ति, तदेव अहं वदन् इच्छामि. अत्र पारात् इति डिफरेण्ट् प्रयोगः. यतपूर्वं वयं दृष्टं जलं गङ्गम्
डिफरेण्ट् प्रयोगं सम्यक् एव पारात् विषयं सूचयति. पारात्
पारात् इत्युक्ते पञ्चमी इति उक्ते पञ्चमी इति कृत्वा अपादानं भवति, अतः पारात् इति पञ्चमी दत्तमस्ति. गङ्गात् गङ्गायाः पारात् इत्युक्ते फ्रम् द अदर् सैड् आफ् गङ्गा, ब्रिङ्ग् फ्रम् द अदर् सैड् आफ् गङ्गा. सो तत्र अपादानं दर्शयति पारात् इत्युक्ते अपादानं फ्रम् वर् फ्रम् इति मीनिङ्ग् रैट्. पठामि
अलौकिकविग्रहवाक्यं गङ्गा योग योग पार योग सु पारे मध्ये षष्ट्या वा इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति. अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनम् अपि भवति. विभक्तेः लोपानन्तरं गङ्गायोगपारे इति भवति. पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति. पारे गङ्गा इति भवति. ह्रस्व नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति. अतः पारे गङ्गा इति भवति. अलौकिकविग्रहवाक्यं गङ्गायोग पारयोग सु.
अत्र एकः प्रश्नः अस्ति भगिनि, यदि पारादि पञ्चमी अस्ति चेत् तत्र सु समीचीनं
नास्ति. अत्र नसि नसि भवितुमर्हति न. गङ्गायोग नस् योग पारयोग नसि.
तदेव मम प्रश्न चिन्ता अस्ति. तत् समीचीनं
नसि एव आयाति गर्भारात्. अनन्तरं प्रक्रिया भवति सुपो मीन् प्रकटरसमासः अव्ययीभावः. अनन्तरं समास प्रातिपदिक संज्ञा. अनन्तरं सुपो प्रातिपदिकात् एतानि सम्भवन्ति. अनन्तरं गङ्गा अफ्कोर्स् नीडु निपातितम् आल्सो पारे गङ्गा पारे इति भवति. पारे मध्ये षष्ट्या वा इति सूत्रेण पारे इति उपसर्जनसंज्ञं भूत्वा प्रथमम् आगच्छति. पारे गङ्गा इति प्रातिपदिकं भवति. अनन्तरं ह्रस्वो नपुंसके प्रातिपदिकस्य सूत्रं कार्यं करोति. पारे गङ्गा इति प्रातिपदिकमस्ति. अनन्तरं पठामि अधुना पारे गङ्गा इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. सुप्रत्ययः उत्पत्तिः भवति. अत्र अव्ययादाप् सुपः इति सूत्रेण प्राप्यमानः सुप् लुक् न अव्ययीभावात् अदौत्वपञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययभावात् अदौत्वपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते, परन्तु पञ्चमी विभक्तिं विहाय. पञ्चमीविभक्तौ अम् आदेशः न भवति. तत्र तथा सामान्यं सुप् प्रक्रिया भूत्वा रूपं भवति. पारे गङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति, अपि तु सुपः स्थाने अम् आदेशः भवति. एतदेव अस्माभिः पूर्वं प्रक्रिया सर्वम् अभवत् तो प्राप्तरूपं भवति पारे गङ्गम् इति प्रथम द्वितीयविभक्तौ. अनन्तरं चतुर्थी षष्ठी अपि पारे गङ्गम् इति. तृतीया विभक्तौ पारे गङ्गया पारे गङ्गया
पारे गङ्गेन
नपुंसकं करेक्ट् पारे गङ्गेन करेक्ट् पारे गङ्गेन पारे गङ्गं. सप्तमी आल्सो पारे गङ्गे पारे गङ्गम् इति भवति. परन्तु अत्र पूर्वं दत्तं पारे गङ्गात् इति, तस्य विवरणम् अधोभागे अस्ति इति चिन्तयामि.
यस्मिन् पक्षे अव्ययीभावः, तत् शर्मला भगिनी पठति वा, यस्मिन् पक्षे अव्ययीभावसमासः न भवति.
धन्यवादः.
शर्मला भगिनी पठतु.
अस्तु महोदय. यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति गङ्गायाः पारः इति लौकिकविग्रहः भवति अलौकिकविग्रहवाक्यं गङ्गायोगः नस् योगः पारयोगः सु नसि वा समासप्रक्रिया भूत्वा गङ्गापार इति प्रातिपदिकं भवति सुप्रत्ययस्य उत्पत्तिः भवति गङ्गापारः इति रूपं भवति प्रथमाविभक्तौ एकवचने गङ्गापारात् इति रूपं भवति पञ्चमी विभक्तौ अव्ययीभावसमासः न भवति तत्र षष्ठीतत्पुरुषसमासः विकल्पेन भवति इति कारणात् गङ्गापारात् इति पदस्य गङ्गायाः पारः इति लौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्यं तत्र गङ्गायोगः नस् पारयोगः अन्य नसि वा अहं सम्यक् न जानामि
तत्र तत्र
अत्र महोदय
दत्तमस्ति लौकिक अलौकिकविग्रहवाक्यं लौकिकविग्रह
अस्तु अस्तु गङ्गायाः पारः अतः गङ्गायाः पारः अस्ति अतः गङ्गायोगः न पारयोगः सु तत्र प्रातिपदिकं भवति गङ्गापार
किं पुष्पभगिनी किं पृच्छति
तुब्लुक् न भवति वा सु न लुक् न भवति वा
तदनन्तरं भूत्वा तदनन्तरं गङ्गापार इति प्रातिपदिकं सिद्ध्यति
सुप्रत्ययस्य लुक् प्रक्रियायाम् अवस्थायां भवति किन्तु लौकिकविग्रहवाक्ये न भवति
न भवति परन्तु अत्र गङ्गापरः इति रूपं भवति प्रथमाविभक्तौ एकवचने तद् न सम्यक् नास्ति न गङ्गापारम् एव
षष्ठीतत्पुरुषसमासे नपुंसके एव भवति वा षष्ठीतत्पुरुषसमासे
उत्तरपदस्य विभक्ति किमस्ति तदेव समासस्य विभक्तिः भवति केवलम् अव्ययीभावसमासे नपुंसकलिङ्गत्वं भवति अन्यसमासपदे उत्तरपदस्य किं कोऽपि विभक्ति भवति तस्य एव
तदैव पुल्लिङ्ग अस्ति
आम् इति कृत्वा तस्मिन् षष्ठीतत्पुरुषसमासे गङ्गायाः पार इति लौकिकविग्रहः भवति इति दत्तमस्ति इति अलौकिकविग्रहवाक्यं प्रत्ययानां विभजनं कृत्वा लिखमस्ति गङ्गायोगाङ्गस् योगपारयोगसु See, because in the Laukika Vigravata, you don't separate the pratyayas. So that is why Gangayaha, you got it. And Paraha, iti Pratama Ekavachanam Su, iti Pratyayasya Karanena. Laukika Vigravakyam Gangayaha, Paraha. When you are doing Alaukika Vigravakyam, then you split out the pratyayas from the Pratipatikam and write it separately. That is why Ganga Yoga Angas, Yoga Para Yoga Su is written there. समासप्रक्रिया भूत्वा गङ्गापार इति प्रातिपदिकं भवति दट् इस् बिकास् षष्ठी विधायकसूत्रे षष्ठी इति प्रथमविभक्त्यम् अस्ति इति कृत्वा तस्य उपसर्जनं पूर्वं भूत्वा गङ्गायाः इति शब्दस्य प्रातिपदिकरूपं गङ्गा इति उपसर्जनं पूर्वं भूत्वा प्रथमं भवति पारा इति उत्तरपदं भवति पारा इति उत्तरपदस्य ये या विभक्ति भवति सः एव समासस्य विभक्ति भवति इति कृत्वा गङ्गापारः इति रूपं भवति प्रथम एकवचने तस्य
अन्यविभक्ति पुल्लिङ्ग अस्ति पारा पुल्लिङ्ग
अकारान्त अकारान्त पुल्लिङ्गमस्ति अकारान्त पुल्लिङ्गमस्ति रामशब्दवत् तत् शमला भगिनी अग्रिमं पठतु
यस्मिन् पक्षे षष्ठी तत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात् आनय इति अतः अस्माभिः पारे गङ्गं गङ्गापारः अपि च गङ्गायाः पारात् इति त्रीणि रूपाणि भवति गङ्गायाः मध्यात् मध्ये गङ्गा गङ्गामध्यात् गङ्गायाः मध्यात् एकस्मिन् पक्षे मध्ये गङ्गात् इति अव्ययीभावसमासः भवति यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गामध्यात् इति भवति यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः मध्यात् आनय इति प्रक्रिया उपरि अस्ति तथैव भवति
महोदय अत्र मध्ये गङ्गात् मध्ये पारात् इत्येव दत्तम् अव्ययीभावसमासस्य रूपम् अस्माकं प्रक्रिया अवसरे मध्ये गङ्गम् इति क्रियते न अव्ययभावात् अतोत्वपञ्चम्यः इति सूत्रेण मध्ये गङ्गात् इति पञ्चमी विभक्तो भवति परन्तु गङ्गायाः मध्यात् इति प्रथममेव अत्र मध्ये गङ्गात् इति दत्तं नार्मलि वि गिव् दि प्रथमविभक्तिरूपं वै हियर् पञ्चमी विभक्तिरूपम् आर् प्रथमविभक्तिरूपमपि मध्ये गङ्गात् एव भवति वा दट् इस् कान्ट्रडिक्टरी
तत्र अव्ययीभावसमासपक्षे मध्ये गङ्गं मध्ये गङ्गात् इति रूपद्वयम् अस्ति न न प्रथम मध्ये गङ्गं
बट् इन् पञ्चमी ओन्ली मध्ये गङ्गात् एव न
आम् पञ्चमी एव मध्ये गङ्गात् अव्ययीभावसमास बट् इन् षष्ठी तत्पुरुषसमास इट् इस् गङ्गायाः मध्यात् इति लौकिकविग्रहवाक्यमस्ति इति कृत्वा गङ्गा इति पूर्वपदं भवति मध्यात् इति उत्तरपदं भवति इति पञ्चमी पञ्चमी विभक्ति अस्ति कृत्वा गङ्गा मध्यात् इति षष्टिविभक्ति समानम् एव दृश्यते किन्तु मध्ये इति एतन्तत्वं न दृश्यते इति एव विशिष्टः अस्ति
No, I don't have any doubt about the Shashti Vibhakti or the Vakya Rupa Prayoga. I have doubt only in the Avyayi Bhava Prayoga. Normally,
Avyayi Bhava, she has given the Panjami Vibhakti Rupam of Madhya Gangam.
Yeah, that is because it is, Panjami Vibhakta Eva Bhavati Anaya तत् कारणेन मध्ये गङ्गात् इति दत्तं वा प्रथमाविभक्ति
आनय आनय इति पदमस्ति वाक्ये इति कृत्वा पञ्चमी विभक्ति उपयुज्यते तत्र
अत्र बट् परन्तु प्रथमाविभक्तौ इट् इस् ओन्ली मध्ये गङ्गा
द्वितीयविभक्ति मध्ये गङ्गा पञ्चमी विभक्ति पञ्चमी ऐ मीन् प्रथमा द्वितीया चतुर्थी षष्टि
आम्
तत्र सर्वं मध्ये गङ्गमेव दृश्यते पञ्चमी तु नित्यत्वेन गङ्गात् इति भवति तृतीया सप्तमी बहुलम् इति कृत्वा तृतीया सप्तमी व्यस्त रूपद्वयं भवति
मध्ये गङ्गात् मध्ये गङ्गं रूपद्वयं भवति
पञ्चमी केवलं मध्ये गङ्गात् एव मध्ये गङ्गम् इति पञ्चमी नास्ति नित्यरूपमस्ति पञ्चमी मध्ये गङ्गात् इति किन्तु तृतीया सप्तमी बहुलम् इति कृत्वा तृतीया रूपद्वयं भवति मध्ये गङ्गं मध्ये गङ्गेन तथैव पञ्चमी सप्तमी मध्ये गङ्गं मध्ये गङ्गे इति रूपद्वयं दृश्यते, किन्तु पञ्चमी मध्ये गङ्गम् इति रूपं नास्ति तथापि.
Now, why I got this doubt was, earlier, what, wherever we have done the prakriyas, we normally give the Prathama Vibhakti, Dvitiya Vibhakti Rupam only, but we explain Panchami, it is happening like Gangat, Upakrishnat, Idi Bhavati, Idi, we explain, but we normally give Krishnasya Samipam, Upakrishnam,
right.
Iteva Dakshama. So that's why I got the doubt here, Madhya Gangat, why only here?
No, this is because the Vakya is Gangaya Madhyat Anaya iti Vakya Masti. Tatra Anaya iti Patasya Karanena Apadanatvam Darshayati. Apadanatvena Panjami Bhavati. So when you are taking it something from somewhere, then you have to show it as a Panjami Vibhakti. So, Anaya iti karmapadam apadana vivaksha asti iti krithva panjami eva bhavati. Iti krithva tasya panjami vivakti eva dattam asti bhagani. Pratama eka vachane anaya iti yojanam na bhavitam arhati. See, you cannot say madhye gangam anaya.
Okay.
Because of the verb anaya, anaya iti verb is for avadanatva vivakshasti. So then you have to avadanatva vivakshasti krutva, you have to say the panjami vibhakti only can be used. Vrikshat anaya, agrihat anaya, vanat anaya iti.
That is only theoretically explaining the madhye gangam.
Because of the word anaya, see the word is that you see here, no? Gangaya Madhyat Anaya Iti.
Vakya Manusmriti.
So for fitting the sentence, you have to use an Apadanatva Rupam of the Samasa.
Okay, I got it, sir.
So that is why both in Panchami and both in Shashti Saptarusha as well as Abhyayi Bhava Samasa, the Panchami Vibhakti is only used. The difference is Madhya Gangat and Ganga Madhyam, Madhyat. It is Shashti Saptarusha.
Abhyayi Bhava Samasa, Shashti Saptarusha Samasa. Madhya Gangat, Abhyayi Bhava. Astu Mahode.
Thank you. Astra, there are four udaharanas. We'll do take one by one, and it is that Rupa has given the Siddha Rupas have been given by Bhagani, but Prakriya Samanameva. So do you want to do any exercise of that? Maya Madhyam. I don't know. Usha Bhagini, any doubt?
No, Maudya, I'm okay. But when I do the Tatpurusha Samasa, Ganga Madhyat, then I would say Ganga Madhyaha, I would form, and then I would say Ganga Madhyaha Tasmat. Ganga Madhyat.
Right. See, Ganga, if you are doing that, it will be like this.
Yeah, Shashtita. Yeah.
Alaukega Ugravakyam will be like this.
Mm-hmm.
And then, since the Laukika Vakya Rupa Masti Gangayaha Parat or Madhyat. So, Uttarapadam Panchami Asti Kritwa Shashti Tatpurusha Samasa Rupa Siddhi Anantaram Panjami Vibhakti,
yeah, then
Ganga Parad Iti Rupam Bhavati.
Bhavati, yeah.
See here.
Ammode.
Right?
Yeah.
But Prakriya will be such first to form Ganga Para.
Para, yeah, that Ganga Para. Right, yeah.
That will be okay. The first Prakriya. Then okay. When you are the last stage, when the subhutpatti bhavati, tatra, you can give all the 21 supratyayas.
Yeah.
पारः पारे पाराः इति प्रथम पारं पार पारन् इति
ओके महोदय
ओके
थैंक यू
ओन्ली दिस प्लेस वेर वी हैव टू चेक विद Bhagini, whether the Su is correct or whether we have to go Ngasi.
Where, Mahodaya? Where?
I think it will always be Su, Mahodaya, but then we have to form the... That's why we get...
Paras, para,
paraha, paraha, para, and then Tasmat, para. Parat.
No. I can understand this in Shashti Satpurusha, what we said is Su is correct, I can say that.
Yeah.
But in...
Avyayi Bhava Samasa Para Yogaha Su, but then later because the Sutra says Pare, we make it Pare, but not worry about the Su. The Su also would go away.
So Mahape, because when she explained the initial sutra, Pare and Madhye, it says Prathama Vibhakti Lupta
Lupta Pradamandam.
Lupta Pradamandam.
Lupta Pradamandam.
Maybe that is why we have Su here.
Okay.
Mahode,
I probably have to ask her.
Okay, okay.
Mahode, I have written down from her lecture. This part I have written down. वाक्ये कथम् अस्ति चेत् गङ्गायाः पारात् आनय इति प्रथमम् अव्ययीभावसमासः कथं भवति चेत् गङ्गायोगः ङसि योगः पारयोगः ङसि दट् इस् वाट् शि सेड्
ऐ रिमेम्बर् दट् दट् इस् वै वेन् ऐ रेड् हियर् वेदर् हि वेदर् ऐ थिङ्क् बिकास् Okay. Anyway, we'll clarify in Bhagini.
Yeah. Okay.
So, anything to need to be discussed further between us? Otherwise, because...
This is all Shivir.
Yeah, Sankhyavaji Saptena, this is goes to the next sutra which he has not recovered. Okay.
I have a suggestion, Mahodaya. See, if we are finishing before the scheduled time, can you do a little bit of revision of the earlier one because we have covered so many sutras. So, just telling the sutra and the immediate, anvaya, anivarti rupam, anantaram, one, two examples. That way, if we have extra time, that is before 8 o'clock, if we finish, can we do the revision? Today I am not ready, but anyway, can we be ready with the earlier sutras and then revise?
Okay, then what I suggest is that in the web page, Sriram Mohadeh has put a thing called a Tippani. Remember?
Yes, yes. Yeah.
So if we have that in our mind, our hand, then what happens is that we can see that. So now I'm sharing. I don't know whether... Can you see this now?
Yes.
We can see this. Yeah.
Yeah. So this is the Tippani which Sri Ramamurthy has made. He has given me the thing to update because he has updated only up to, I think, here. So Anurya Samaya. So the remaining sutras we have to add further. So we can do one thing. Whenever we finish earlier, we can take this as a reference because this is a... concised form of the same prakriya.
Okay. It's not in the list. There is no Tippani.
There is a Tippani given in the website where the recordings are posted.
Oh, recording. Okay.
Where Shira Mahodaya's recording is posted, Mahodaya?
No, Vidya.
Yes.
On the right side of the box.
on the right side in the right side there is a, at the bottom you will find the tippani as a link to for a PDF to be downloaded. So for the next class onwards, if we keep the tippani also and if we are finishing early, we can revise from the beginning on the tippani part.
But so you're talking about Shira Mahodaya's recordings, right?
Yeah, and that's okay. After the Vidya Bhagini's recording, at bottom is Shira Mahodaya's recording.
Okay.
In that, there he has given in the last then tippani is about this one.
Okay, Mahodaya.
So if we have this ready in our hand, what we can do is we can revise this. It will cover the Avyayi Bhavasa Samasa. We can completely revise at a, what are the Panchopangani, Pradama, this thing. Then what are the first sutras, you know, what it is giving. So here he has given each one.
Mm-hmm.
Vibhaktyarte Adi, Samiparte Upa, Samridhyarte Su, Vyardhate Dur. Like that he has given. And examples also given.
Has it given the from the beginning? From
the beginning, from the very beginning of Avyayi Bhava Samasa.
Okay, let me see.
It's a very concise hand note which will help us to immediately locate where which sutra is what and what is the example of that.
Okay.
So if we keep this as our hand book, then when we ask Gomati Bhagini has suggested, if when we have enough time, we can revise that.
I do need to revise because I keep forgetting this sutras.
Right.
They mix it up too. So Sri Ram always laughs at me. Mix up from one to the other. That's why. Okay, that's good. All right, next time.
Okay, so we will stop here today. So next class onwards, we'll have this PDF also with us. Let me see if I can update it to the latest Samasa Sutras, because Anurya Samaya is the last one which Mahodaya has done. So from Anurya Samaya to the Trishtad Gupta Pradinija and Pare Madhya Shastava, I had to add that.
Yes, Chayama.
Yes.
Tippani PDF. Okay.
Right.
Everywhere it is there then.
No. You should take the last one because each class gets updated.
Okay.
It gets updated.
Okay. I don't know, Madhya, I have difficulty in typing because Sanskrit it's not easy to type the Sanskrit for me in my computer phone everywhere. I don't know what people use.
The computer typing, you need to adjust your keyboard for that. If you are using an iPad or iPhone, you have to add a keyboard which is called Devanagari or Hindi.
I have Hindi.
Yeah. You can use the Hindi alphabets for filling it up. Only thing is that there will be slight difference in the, you know, Visarga and Anuswara and all places.
I can always put it. Visarga, right. you know what I put for Visarga? The two dots.
Semicolon.
Colon. Not colon, I'm sorry. Whatever that is. Okay, that's what I put. All right, but it's still... I guess I don't type enough, that's why.
on the computer you can use there is a Google keyboard available, online keyboard available. So if you write with your English alphabet, English pronunciation, it will convert itself into the Sanskrit lipis.
It's
called Indic typing.
Lakshmi Bhagini sent me some couple of the way to type. Same way, English and English should become Sanskrit, yeah. All right, Mahodaya, thank you.
Okay. Right. Atra, we'll stop it here.
Okay.
Sarve bhavantu sukhinaha, sarve sandhu niramaya, sarve badhrani pasyantu, ma kaschid dukkha bhag bhavet. Om shanti shanti shanti. हरि ओम् श्रीगुरुभ्यो नमः हरि ओम्.